अथ द्वितीयोऽध्यायः देवराजमुक्तिवर्णनम्। शौनक उवाच, सूतसूतमहाभागधन्यस्त्वम् परमार्थवित्, अद्भुतेयम् कथा दिव्या श्राविता, कृपया हिनः अघौघविद्वंसकरी मनः शुद्धिविधायिनी शिवसन्तोषजननी कथेयम् न श्रुताद्भुता, एतत्कथा समानम् न भुवि किञ्चित् परात्परम्। निश्चयेनेति विज्ञातम् अस्माभिः कृपया तव, केके विशुध्यञ्जनया कथया पापिनः कलौ, वदतान् कृपया सूतकृतार्थम् भुवनम् कुरु। सूत उवाच, हे मानवाः पापकृतो दुराचाररथा खलाः, कामादिनिरता नित्यम् तेऽपि शुध्यञ्जनेन वै, ज्ञानयज्ञः परोऽयम् वै भुक्तिमुक्तिप्रदः सदा, शोधनः सर्वपापानाम् शिवसन्तोषकारकः, तृष्णाकुलाः सत्यहीनाः पितृमातृविदूषकाः, दाम्भिका हिंसका ये च तेऽपि शुध्यञ्जनेन वै, स्ववर्णाश्रमधर्मेभ्यो वर्जिता मत्सरान्विताः, ज्ञानयज्ञेन तेनेन सम्पुनन्ति कलावपि, छलच्छद्मकरा ये च क्रूरासु निर्दयाः, ज्ञानयज्ञेन तेनेन सम्पुनन्ति कलावपि, ब्रह्मस्वपुष्टा सततम् व्यभिचाररताश्च ये, ज्ञानयज्ञेन तेनेन सम्पुनन्ति कलावपि, सदा पापरता ये शठा च दुराशयाः, ज्ञानयज्ञेन तेनेन सम्पुनन्ति कलावपि, मलिना दुर्भियो अशान्ता देवता द्रव्यभोजिनः, ज्ञानयज्ञेन तेनेन सम्पुनन्ति कलावपि, पुराणस्यास्य पुण्यम् सन्महापादकनाशनम्, भुक्तिमुक्तिप्रदम् चैव शिवसन्तोषहेतुकम्। अत्रैवोदाहरन्तीमम् इतिहासम् पुरातनम्, यस्य श्रवणमात्रेण पापः निर्भवत्यलम्। आसीत् किरातनगरे ब्राह्मणो ज्ञानदुर्बलः, दरिद्रो रथविक्रेता देवधर्मपराङ्मुखः, सन्ध्यास्नानपरिभ्रष्टो वैश्यवृत्तिपरायणः, देवराज इति ख्यातो विश्वस्त जनवञ्चकः, सविप्रान् क्षत्रियान् वैश्यान् शूद्रांश्चापि तथा परान् हत्वा नानामिचेनैव तत्तद्धनमपाहरत्। अधर्माद् बहुवित्तानि पश्चात्तेनार्जितानि वै, न धर्माय धनम् तस्य स्वल्पम् चापीह पापिनः। एकदैकतडागे स स्नातुम् यातो महीसुरः, वेश्याम् शोभावतीम् नाम दृष्ट्वा तत्रादिविह्वलः, स्ववशम् धनिनम् विप्राज्ञात्वा हृष्टाधसुन्दरी, वार्तालापेन तच्चित्तम् प्रीतिमत्समजायत। स्त्रियम् कर्तुम् स ताम् मेने, पतिम् कर्तुम् च सा तथा, एवम् कामवशौ भूत्वा बहुकालम् विजह्रतुः, आसने शयने पाने भोजने क्रीडने तथा, दम्पतीव सदा द्वौ तु ववृता ते परस्परम्, मात्रा पित्रा तथा पत्न्या वारितोऽपि पुनः पुनः, नामन्यतवजस्तेषाम् पापवृत्तिपरायणः। एकदेर्ष्यावशाद्रात्रौ मातरम् पितरम् वधूम्, प्रसुप्तान्यवधीदृष्टो धनम् तेषाम् तथा हरद्, आत्मनीनम् धनम् यच्च पित्रादीनाम् तथा धनम्, वेश्यायै दत्तवान् सर्वम् कामी तद्गतमानदः, स्वभक्ष्यभक्षकः पापी मदिरापानलालतः, एकपात्रे सदा भौक्षीत् सर्वेश्यो ब्राह्मणाधमः, कदाचिद्दैवयोगेन प्रतिष्ठानमुपागतः, शिवालयम् ददर्शासौ तत्र साधुजनावृतम्, स्थित्वा तत्र च विप्रोऽसौ ज्वरेनातिप्रपीडितः, शुश्रावसततम् शैवीम् कथाम् विप्रमुखोद्गताम्। देवराजश्च मासान्ते ज्वरेनापीडितो मृतः, बद्धोऽयमभटैः पाशैर्नीतोऽयमपुरात् बलात्, तावच्छिवगना शुभ्रा त्रिशूलाञ्चितपानयः, भस्मभाजित सर्वाङ्गा रुद्राक्षात् चितविग्रहाः, शिवलोका समागत्य क्रुद्धा यमपुरीम् ययुः, ताडयित्वा तद्धूताम् तर्जयित्वा पुनः पुनः, देवराजम् समामोच्य विमाने परमाद्भुते उपवेशत। यदा दूताः कैलासम् गन्धमुत्सुकाः, तदा यमपुरीमध्ये महाकोलाहलोऽभवत्। धर्मराजस्तु तम् श्रुत्वा स्वालयाद् बहिरागमन्त्, दृष्ट्वाथ चतुरो दूतान् साक्षाद्रुद्राणि वापरान्, पूजयामास धर्मज्ञो धर्मराजो यथाविधि, ज्ञानेन चक्षुषा सर्वम् वृत्तान्तम् ज्ञातवान्यमः, न भयात् पृष्टवान् किञ्चित् शम्भोर्दूतान् महात्मनः, पूजिता प्रार्थितास्ते वै कैलासमगमंस्तदा, तदुर्शिवाय साम्बाय तम् दयावारिराशये, धन्या शिव पुराणस्य कथा परमपावनी, यस्या श्रवणमात्रेण पापीयान् अपि मुक्तिभाग्, सदाशिवमहास्तानम् परम् धाम परम् पदम्, यदाहुर्वेद विद्वांसः सर्वलोकोपरिस्थितम् ब्राह्मणा क्षत्रिया वैश्याः शूद्रा अन्येऽपि प्राणिनः हिंसिता धनलोभेन बहवो येन पापिना मातृपितृवधूहन्त वेश्यागामी च मध्यपः देवराजो द्विजस्तत्र गत्वा मुक्तो भवत्क्षणात् इति श्रीस्कान्दे शिवपुराणमाहात्म्ये देवराजमुक्तिवर्णनम् नाम द्वितीयोऽध्यायः।